नमस्कारः अद्य वैयाकरणभूषणसारस्य धात्वर्थप्रकरणे तृतीयः पाठः जनवरीमासस्य षोडशः दिनाङ्कः येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम् श्रीलक्ष्मीरमणन्नौमि गौरीरमणरूपिणम् स्फोटरूपम् यतः सर्वम् जगदेतद्विवर्तते प्रथमपाठे व्याकरणशास्त्रे आर्थिकग्रन्थानाम् परम्पराविषये तेषु चर्चितानाम् विषयाणाम् विषयानधिकृत्य च अस्माभिः अधीतम्. द्वितीये पाठे वैयाकरणभूषणसारस्य मङ्गलश्लोकाः अधीताः. तत्र पञ्चश्लोकाः अस्माभिः दृष्टाः. श्रीलक्ष्मीरमणन्नौमि गौरीरमणरूपिणम् स्फोटरूपम् यतः सर्वम् जगदेतद्विवर्तते इति प्रथमः श्लोकः. तत्र गौरीरमणरूपिणम् श्रीलक्ष्मीरमणम् नौमि, शिवाभिन्नम् विष्णुम् प्रणमामि इति अद्वैतमतानुसारेण हरिहरयोः अभेदम् प्रतिपादयन् कौण्डभट्टः इष्टदेवम् नमस्करोति. स्फोटरूपम्, तत्र स्फोटरूपम् इति शब्दब्रह्म इत्यर्थे स्वीकृते श्रीलक्ष्मीरमणस्य विशेषणम्. स्फोटः इत्यनेन शब्दः, रूपम् इत्यनेन अर्थः स्वीक्रियते चेत् नामरूपात्मकम् जगत् इति जगतः विशेषणम्. स्फोटरूपम् जगत् यतः यस्मात् लक्ष्मीरमणात् विवर्तते तं नौमि इति अन्वयः, अथवा स्फोटरूपम् लक्ष्मीरमणम् नौमि यस्मात् सर्वम् जगद् विवर्तते. तत्र पुनः विवर्तपदार्थस्य विषयेऽपि अस्माभिः ज्ञातम्, अतात्विकः अन्यथाभावः विवर्तः इत्यादिना. द्वितीये श्लोके अशेषफलदातारम् भवाब्धितरणेतरिम् शेषाशेषार्थलाभार्थम् प्रार्थये शेषभूषणम् इति श्लोकः. शेषभूषणम् प्रार्थये, पुनश्च तत्रापि शेषभूषणम् इति पदेन शिवः अपि ध्वन्यते, विष्णुरपि ध्वन्यते. तं प्रणमामि. यः अशेषफलदाता, सर्वेषाम् फलानाम् ऐहिकानाम् अमुष्मिकानाम् अपवर्गरूपस्य च फलस्य प्रदाता, भवाब्धितरणे तर्हि समुद्रस्य भवसागरस्य अतिक्रमणे नौकारूपः, तादृशम् शेषभूषणम् प्रार्थये शेषाशेषार्थलाभार्थम्. शेषः नाम शेषावतारः पतञ्जलिः. तस्य सर्वेषाम् अर्थानाम् ज्ञानार्थम् प्रार्थये इति श्लोकः. पाणिन्यादिमुनीन् प्रणम्य पितरम् रङ्गोजिभट्टाभिधम् द्वैतध्वान्तनिवारणैकफलिकाम् पुम्भाववाग्देवताम् ढुन्ढिम् गौतमजैमिनीयवचनव्याख्यातृभिर्दूषितान् सिद्धान्तानुपपत्तिभिः प्रकटये तेषाम् वचो दूषये इति श्लोकस्य पूर्वार्धेन नमस्कारः विधीयते. पाणिन्यादि व्याकरणशास्त्रकर्तॄणाम् आचार्याणाम् नमस्कारः. पितुः प्रणामः. रङ्गोजिभट्टनामकः पिता द्वैतरूपस्य अन्धकारस्य निवर्तकः, सरस्वतीरूपश्च तादृशस्य पितुः. पुनश्च ढुन्धि गणपतेः वन्दना विधीयते. ततः चिकीर्षितम् प्रतिजानीते कौण्डभट्टः. गौतम जैमिनीय वचन व्याख्यातृभिः दूषितान् सिद्धान्तान् उपपत्तिभिः प्रकटये तेषाम् वचो दूषये इति ग्रन्थस्य प्रतिज्ञा. अस्मिन् ग्रन्थे अहम् सिद्धान्तान् प्रकटये. सिद्धान्तान् कान् सिद्धान्तान्? वैयाकरणसिद्धान्तान् उपपत्तिभिः प्रकटये. साधकप्रमाणपुरःसरम् अस्मत्सिद्धान्ताः एव युक्ताः इत्यत्र यानि साधकप्रमाणानि तानि विस्तरेण विविच्य अस्माकम् सिद्धान्तान् स्पष्टीकरोमि किञ्च ते सिद्धान्ताः कीदृशाः? गौतम इत्यनेन न्यायसूत्रकर्ता, जैमिनिः मीमांसासूत्रकर्ता, तेषां व्याख्यातारः न्यायशास्त्रे मीमांसाशास्त्रे च ये बहवः ग्रन्थकर्तारः व्याख्यातारो वा तैः दूषिताः दोषत्वेन प्रतिपादिताः वैयाकरणसिद्धान्ताः तानहं साधकप्रमाणैः स्पष्टीकरोमि तेषां वचनानि अर्थात् मीमांसाकाराणां मीमांसाशास्त्रव्याख्यातॄणां न्यायशास्त्रव्याख्यातॄणां च वचनानि दूषये अर्थात् बाधकप्रमाणैः तान् निरस्य अस्मत्सिद्धान्तान् स्पष्टीकरोमि इति कौण्डभट्टस्य प्रतिज्ञा. अनेन अस्य ग्रन्थस्य विषयः दर्शनान्तरपूर्वपक्षप्रतिपादनपूर्वकं व्याकरणसिद्धान्तानां प्रतिपादनम् इति अवगम्यते. ततः द्वौ श्लोकौ प्रायेण प्रक्षिप्तौ बहुषु पुस्तकेषु न दृश्येते, तथापि दृष्टं. वाग्देवी यस्य जिह्वाग्रे नरीनर्ति सदा मुदा भट्टोजिदीक्षितमहं पितृव्यं नौमि सिद्धये, यस्य रसनायाः अग्रभागे वाचां देवी सरस्वती सन्तोषेण सर्वदा नृत्यति अर्थात् यस्य वचनानि अत्यन्तं विद्वत्पूर्णानि भवन्ति, तादृशं पितृव्यं पितुः भ्रातरं भट्टोजिदीक्षितम् अहं सिद्धये प्रणमामि इत्येकः श्लोकः. नत्वा गणेशपादाब्जं गुरुनथ सरस्वतीं श्रीकौण्डभट्टः कुर्वेऽहं वैयाकरणभूषणम् इत्यपरश्लोकः. गुरून् गणेशं गुरून् सरस्वतीं च प्रणम्य श्रीकौण्डभट्टनामा अहं वैयाकरणभूषणं नाम ग्रन्थं रचयामि इत्यपरश्लोकः. एते श्लोकाः अस्माभिः अधीताः. सन्देहाः विद्यन्ते? अस्तु, अग्रे गच्छामः. इदानीं यथा पूर्वम् अपि उक्तं, वैयाकरणभूषणसारः भट्टोजीदीक्षितानां वैयाकरणमतोन्मज्जनकारिकाणां व्याख्यारूपः, अतः ताः कारिकाः उद्धृत्य व्याख्यानं करोति कौण्डभट्टः. सर्वदा कस्यचित् श्लोकस्य वा शास्त्रपङ्क्तेः वा व्याख्यानम् इति यदा क्रियते तत्र भागत्रयं भवति. आदौ अवतरणिका इत्युच्यते, इत्युक्ते पूर्वोक्तविचारेण सह प्रसङ्गं साधयित्वा किमर्थम् अग्रिमः भागः उच्यते इति अवतरणिका ग्रन्थः इत्युच्यते. अवतरणम् इन्ट्रडक्षन्, इन्ट्रड्यूसिङ्ग् अ पार्ट् आफ् द श्लोक. सर्वेषु व्याख्यानग्रन्थेषु अयमेव क्रमः. अवतरणिकाभागः कदाचित् भवति, कदाचित् न भवेत्, किन्तु प्रायेण भवति. किमर्थम् अग्रे इदानीं सूत्रमस्ति, तर्हि इदं सूत्रं किमर्थम् आरभ्यते, अथवा कश्चन श्लोकः किमर्थमिदमारभ्यते इति आदौ किञ्चित् पीठिकारूपेण उच्यते, तस्य अवतरणिका इति नाम. ततः मूलग्रन्थस्य उद्धृतः भागः, अनन्तरं तस्य व्याख्यानम् इत्येवं क्रमः प्रायेण आश्रियते. अतः अत्रापि प्रथमस्य प्रथमायाः कारिकायाः इयम् अवतरणिका, प्रारिप्सितप्रतिबन्धकव्यूहोपशमनाय कृतं श्रीपतञ्जलिस्मरणरूपं मङ्गलं शिष्यशिक्षार्थं निबध्नन् चिकीर्षितं प्रतिजानीते. कः प्रतिजानीते? भट्टोजीदीक्षितः स्वीये वैयाकरणमतोन्मज्जनकारिकाः इत्याख्ये ग्रन्थे एवं करोति. किं करोति? मङ्गलम्, मङ्गलं कृतवान्. कीदृशं तत् मङ्गलम्? श्रीपतञ्जलिस्मरणरूपं मङ्गलम्, कदाचित् फणिस्मरणरूपं मङ्गलम् इत्यपि पाठान्तरं विद्यते. पतञ्जलेः स्मरणरूपं मङ्गलं भट्टोजीदीक्षितेन कृतम्. किमर्थं कृतम्? प्रारिप्सितप्रतिबन्धकव्यूहोपशमनाय. प्रारब्धुं भट्टोजीदीक्षितस्य प्रथमकारिकायाः अवतरणं प्रारब्धुमिष्टं प्रारिप्सितम्, ईप्सितम् इत्यस्ति किल, आरब्धुम् इच्छति, प्रारब्धुम् इच्छति, प्रारिप्सितं यत् प्रारब्धुमिष्टं. किं प्रारब्धुमिष्टं? वैयाकरणमतोन्मज्जनं नाम ग्रन्थः, तस्य ग्रन्थस्य प्रतिबन्धकाः नाम अवरोधकाः, विघ्न ये विघ्नाः, तेषां व्यूहः नाम समूहः, విఘ్నరాశి విఘ్నరాశే ఉపశమనాయ నామ శాంతయే అథవా నాశాయ ప్రారబ్ధం ఇచ్చతి గ్రంథమేకం ప్రారబ్ధం ఇచ్చతి తస్య గ్రంథస్య రచనావేళాయాం ఏ విఘ్నాః సంభావితాః తేషాం సమూహస్య నాశార్థం ప్రారిప్సిత ప్రతిబంధక వ్యూహోపశమనాయ కృతం. తదర్థం కిం కృతం తేన శ్రీ పతంజలి స్మరణ రూపం మంగళం కృతం. శ్రీ ఫణిస్మరణ రూపం ఇది కేషుచిత్ పుస్తకేషు భవతి. అర్థః స ఏవ ఫణి ఇత్యనేన తత్ర పతంజలిరేవ వివక్ష్యతే. తాదృశం మంగళం తేన కృతం. మంగళంతో మానసికం వా వాచికం వా భవతి. తత్తు గ్రంథే కిమర్థం నిబధ్యతే శిష్య శిక్షార్థం నిబధ్నన్. సర్వదా సర్వేషు గ్రంథేషు మంగళం క్రియతే ఏవ. తచ్చ మంగళం గ్రంథే ఆదౌ లిఖ్యతే. కిమర్థం లిఖ్యతే? శిష్య శిక్షార్థం. శిష్యా అపి ఏతద్దృష్ట్వా అస్మద్గురుభిః మంగళం కృతం. అస్మాభిరపి కర్తవ్యస్య ఆదౌ మంగళం కరణీయం ఇతి జానీయుః ఇతి బుద్ధ్యా తత్ శిష్య శిక్షార్థం గ్రంథస్య ఆదౌ నిబధ్యతే. ఏవం నిబధ్నన్ చికీర్షితం. నిబధ్నన్ చికీర్షితం నిబధ్నం చికీర్షితం ఇతి సంధి. కసంధి జ్ఞాయతే అథవా స్మర్యతే? ఇది న జ్ఞాయతే తర్హి దృష్ట్వా ఆగచ్చతు కీదృశ సంధిః. నిబధ్నన్ చికీర్షితం ఇత్యస్తి. తత్ర నిబధ్నం చికీర్షితం ఇతి రూపం సిద్ధ్యతి. నిబధ్నన్ మంగళం నిబధ్నన్ చికీర్షితం ప్రతిజానీతే. కర్తుమిష్టం చికీర్షితం. కిం చికీర్షితం? గ్రంథః ఏవ చికీర్షితః. అతః మయా యత్ క్రియతే ఇతి ప్రతిజానీతే. ప్రతిజ్ఞాం కరోతి. ప్రతిజ్ఞా ఇత్యనేన అత్ర గ్రంథస్య ఉద్దేశ్య కథనం. యథా కౌండభట్టేన పూర్వత్ర శ్లోకే సిద్ధాంతాన్ ఉపపత్తిభిః ప్రకటయే తేషాం వచో దూషయే ఇతి ఉక్తం సా ప్రతిజ్ఞ. వైయాకరణ భూషణ సారస్య సా ప్రతిజ్ఞ. శాస్త్రగ్రంథేషు ఇయం పరిపాటీ దృశ్యతే. ఆదౌ ప్రతిజానీతే ఏవం మయా క్రియతే ఇతి. తద్దృష్ట్యా ఏవ గ్రంథస్య అధ్యయనం కర్తవ్యం. ఏవం అత్ర ఇదానీం అస్య గ్రంథస్య వైయాకరణ మతోన్మజ్జన నామకస్య గ్రంథస్య ఉద్దేశ్యం కథయతి ఇతి. సహ శ్లోకః ఏవమస్తి. ఫణిభాషిత భాష్యాబ్ధేః శబ్దకౌస్తుభౌ ఉద్ధృతః తత్ర నిర్ణీత ఏవార్థః సంక్షేపేణేహ కథ్యతే. మూలకారిక ఇత్యనేన సర్వదా వైయాకరణ మతోన్మజ్జన గ్రంథస్య భట్టోజీ దీక్షిత విరచితస్య కారికా ఇత్యర్థః. ఏషా కారికా అధునా కౌండభట్టేన వ్యాఖ్యాయతే. ఫణిభాషిత భాష్యాబ్ధేః శబ్దకౌస్తుభ ఉద్ధృతః తత్ర నిర్ణీత ఏవార్థః సంక్షేపేణేహ కథ్యతే. ఫణిభాషిత భాష్యాబ్ధేః ఫణి నామ ఫణినా శేష ఫణి ఇతి శేష నామ పతంజలి తేన భాషితం ఫణినా భాషితం ఫణిభాషితం కిం మహాభాష్యం యద్ భాష్యం వ్యాకరణ మహాభాష్యం తదేవ అబ్ధిః నామ సముద్ర భాష్యరూపః సముద్ర యః ఫణినా నామ పతంజలినా ఉక్తః తస్మాత్ భాష్యాబ్ధేః ఇతి పంచమి. తస్మాత్ శబ్దకౌస్తుభః ఉద్ధృతః ఇత్యన్వయః. ఫణిభాషిత భాష్యాబ్ధేః శబ్దకౌస్తుభః ఉద్ధృతః. భాష్యః ఏవ సముద్రః ఇత్యుచ్యతే. కథం కిం సామ్యం భాష్యస్య సముద్రస్య చ? అగాధతయా దుస్తత్వేన అమూల్య వస్తు సత్వేన చ. అగాధం అత్యంతం డీప్ ఆళమానద్ ఇతి యదుచ్యతే. తత్ అగాధం యస్య గాధః మాతుం న శక్యతే. ద డెప్త్ విచ్ కెనాట్ బి మెజర్డ్ తత్ అగాధం ఇత్యుక్తం. యథా సముద్రః అగాధః తథైవ భాష్యమపి అగాధం. దుస్తరం తరీతుం నౌకయా వా తరణేన వా అతిక్రాంతుం అత్యంతం దుశ్శకం దుస్తరత్వేన. యథా సముద్రః సులభతయా తరీతుం అశక్యః తథైవ భాష్యమపి తరీతుం कष्टं भाष्यार्थः अवगन्तुं क्लिष्टः इत्यर्थः अमूल्यवस्तुसत्त्वेन च पुनश्च समुद्रे बहूनि अमूल्यवस्तूनि रत्नादिकं लभ्यते समुद्रे तथैव भाष्ये अपि बहूनि अमूल्यवस्तूनि वस्तूनि इत्येन अर्थाः लभ्यन्ते एवम् अगाधतया दुस्तरत्वेन अमूल्यवस्तुसत्त्वेन च भाष्यस्य समुद्रेण साम्यम् अत एव भाष्याब्धिः भाष्यः एव समुद्रः इत्युच्यते तस्मात् समुद्रात् किम् उद्धृतम् शब्दकौस्तुभः उद्धृतः कौस्तुभः इति मणिः वयं जानीमः महाविष्णोः वक्षसि विद्यमानः मणिः सहारवक्षस्थल कौस्तुभश्रियम् इत्येव तस्य महाविष्णोः वक्षसि यः अमूल्यः मणिः विराजते तस्य कौस्तुभः इति नाम कौस्तुभमणिः समुद्रमथनकाले समुद्रात् क्षीरसमुद्रात् आगतः तं महाविष्णुः स्वीकृतवान् इति कथा सः अब्धेरम्भसां सारमयः समुद्रस्य जलं भवति किल तस्य जलस्य सारः यदस्ति तदेव कौस्तुभमणिरूपेण बहिरागतम् इति प्रतीतिः अतः यथा कौस्तुभमणिः अस्ति तथैव शब्दकौस्तुभः इति कश्चित् ग्रन्थः एषः ग्रन्थः भट्टोजीदीक्षितैः रचितः अष्टाध्याय्याः वृत्तिग्रन्थः यथा काशिका वृत्तिः यथा वा सिद्धान्तकौमुदी तथा अष्टाध्याय्याः वृत्तिग्रन्थः भट्टोजीदीक्षितेन विरचितः शब्दकौस्तुभः इति नाम सः ग्रन्थः अधुना पूर्णतया नोपलभ्यते भागशः एव उपलभ्यते सः ग्रन्थः अपि कौस्तुभमणिः इव यथा कौस्तुभमणिः समुद्रजलस्य साररूपः तथा एषः शब्दकौस्तुभः भाष्यार्थानां सारभूतः भाष्ये ये अर्थाः उक्ताः तयेव सङ्ग्रहरूपेण कौस्तुभे उच्यन्ते इति आशयेन तस्य ग्रन्थस्य शब्दकौस्तुभः इति नाम स्वीकृतं भट्टोजीदीक्षितैः एवं यथा क्षीरसमुद्रात् देवदानवैः कौस्तुभमणिः उद्धृतः तथा भट्टोजीदीक्षितेन महाभाष्यरूपात् समुद्रात् शब्दकौस्तुभः उद्धृतः इति उपमालङ्कारः वस्तुतः उपमान अत्र सर्वत्र रूपकालङ्कारः एव अस्ति भाष्यमेव अब्धिः भाष्यः एव समुद्रः तस्मात् समुद्रात् शब्दाः शब्दरूपः कौस्तुभः उद्धृतः इत्यर्थः फणिभाषितभाष्याब्धेः शब्दकौस्तुभः उद्धृतः अर्थात् महाभाष्याधारेण शब्दकौस्तुभनामकः ग्रन्थः भट्टोजीदीक्षितेन रचितः तत्र निर्णीत एवार्थः तत्र नाम शब्दकौस्तुभे निर्णीतः सम्यक् विचार्य पूर्वपक्षनिराकरणपूर्वकं सिद्धान्ताः ये प्रतिपादिताः तत्र निर्णीतः इत्यनेन स एवार्थः तत्र निर्णीतः अर्थः नाम धात्वादिप्रकृतीनाम् अर्थः तिङादिप्रत्ययानाम् अर्थः अन्ततो गत्वा व्याकरणस्य सिद्धान्तभूतः स्फोटः सः स्फोटः कीदृशः इति अर्थः एवम् एते सर्वेपि अर्थाः प्रकृत्यर्थः प्रत्ययार्थः स्फोटरूपः अर्थश्च कुत्र निर्णीतः शब्दकौस्तुभे निर्णीतः तत्र सः अत्यन्तं विस्तृतः ग्रन्थः शब्दकौस्तुभः तत्र सम्यग् विचार्य एते सिद्धान्ताः भट्टोजीदीक्षितैः निष्कृष्टत्वेन प्रतिपादिताः ते एव सिद्धान्ताः संक्षेपेण इह अत्र कथ्यन्ते संक्षेपः नाम कः द्विविधः संक्षेपः सम्भवति विस्तृतार्थस्य मुख्यांशकथनेन सूक्ष्मीकरणं संक्षेपः संक्षेपः कश्चिदर्थः इदानीं पृष्ठत्रये उक्तः शब्दकौस्तुभे स एव अर्थः अत्र यदि एकेन श्लोकेन कथ्यते तर्हि सः संक्षेपः विस्तृतस्य अर्थस्य मुख्यांशकथनेन तत्र पृष्ठत्रये यद्यत् कथितं तत्सर्वमपि अत्र कथितुं तु न शक्यते तत्र मुख्यः यः अंशः स एव कथ्यते सूक्ष्मीकरणम् अत्यन्तं सूक्ष्मरूपेण कथ्यते सः संक्षेपः पुनश्च तत्र तत्र विप्रकीर्णानाम् अर्थानाम् एकत्र प्रदर्शनमपि संक्षेपः इदानीं शब्दकौस्तुभः अष्टाध्याय्याः वृत्तिग्रन्थः. तत्र प्रथमाध्याये किञ्चिदुक्तम्, तृतीयाध्याये तस्मिन्नेव विषये किञ्चिदुक्तम्, सप्तमाध्याये किञ्चिदुक्तम्. प्रसङ्गवशात् इदानीं त्रिषु स्थलेषु एकमेव विषयम् अधिकृत्य किञ्चिदुक्तम्. तस्य सर्वस्यापि एकत्रैव यदा सङ्ग्रहः क्रियते तस्यापि सङ्क्षेपः इति नाम. तत्र तत्र विप्रकीर्णानां दूरे स्थितानाम् अर्थानाम् एकत्र प्रदर्शनम्. इदानीं यदि एकत्र लभ्यते तर्हि केवलम् अस्य अध्ययनेन विषयस्य सर्वे अंशाः ज्ञातुं शक्यन्ते इति. द्विविधः सङ्क्षेपः अपि अत्र क्रियते इत्यर्थः. शब्दकौस्तुभे विस्तरेण यत् प्रतिपादितं तदत्र सङ्ग्रहेण उच्यते, पुनश्च शब्दकौस्तुभे भिन्नेषु स्थलेषु यत् प्रतिपादितं तत्सर्वं सङ्ग्रह्य प्रकरणानुगुणं. धात्वर्थः इत्युक्ते यत्र यत्र धातोः अर्थविषये उक्तं तत्सर्वम् अत्र सङ्गृह्यते. लकारार्थः इत्युक्ते लकाराणां विषये यत्र यत्र उक्तं तत्सर्वं सङ्गृह्य एकत्र उच्यते इति. द्विविधोऽपि सङ्क्षेपः क्रियते. सङ्क्षेपेण इह नाम अत्र, कुत्र? वैयाकरणमतोन्मज्जनम् इत्याख्ये ग्रन्थे. सङ्क्षेपेण इह कथ्यते, उच्यते. केन उच्यते? मया भट्टोजिदीक्षितेन. इयं कारिका भट्टोजिदीक्षितेन रचिता. एतत् स्मर्तव्यम्, पूर्वं ये श्लोकाः ते सर्वेऽपि श्लोकाः कौण्डभट्टेन रचिताः. अयं श्लोकस्तु भट्टोजिदीक्षितस्य श्लोकः. किं वदति अत्र भट्टोजिदीक्षितः? महाभाष्यम् अधिकृत्य, महाभाष्यम् आधृत्य बहवः सिद्धान्ताः मया शब्दकौस्तुभे विस्तरेण प्रतिपादिताः. त एव सिद्धान्ताः अधुना सङ्क्षेपेण अस्मिन् ग्रन्थे कथ्यन्ते इति भट्टोजिदीक्षितः प्रतिजानीते. उद्धृतः इति. इदानीम् इयम् अस्याः कारिकायाः व्याख्या. आदौ कारिकायाः अवतरणिका, तदनन्तरं कारिका, इदानीं कारिकायाः व्याख्या. कारिका भट्टोजिदीक्षितेन रचिता, अवतरणिका व्याख्या च कौण्डभट्टेन रचिता. अतः इदानीं यदुच्यते तत्सर्वं कौण्डभट्टस्य वचनम्. उद्धृतः इति. शब्दकौस्तुभ उद्धृतः. अत्र अस्माभिः इति शेषः. केन उद्धृतः? अस्माभिः नाम भट्टोजिदीक्षितेनैव शब्दकौस्तुभोऽपि रचितः. अतः मया भट्टाजी भट्टोजिदीक्षितेन इत्यर्थः. भाष्याब्धेः शब्दकौस्तुभ उद्धृतः इत्युक्तिस्तु शब्दकौस्तुभोक्तानाम् अर्थानाम् आधुनिक उत्प्रेक्षितत्वनिरासाय. इदानीम् अत्र प्रश्नः अस्ति, अस्मिन् ग्रन्थे तु सिद्धान्तानां सङ्क्षेपः एव क्रियते. शब्दकौस्तुभस्य अयं सङ्क्षेपः इति वक्तुं शक्यते. भाष्याब्धेः शब्दकौस्तुभः उद्धृतः इति किमर्थं वक्तव्यम्? अस्य ग्रन्थस्य कः प्रसङ्गः? शब्दकौस्तुभे यदुक्तं तदत्र सङ्गृह्यते इत्येव वक्तव्यम्. तत्र भाष्याब्धेः शब्दकौस्तुभः उद्धृतः इति किमर्थं वक्तव्यम् इति चेत्, यदि केवलं शब्दकौस्तुभे उक्ताः अर्थाः अत्र सङ्क्षिप्यन्ते इति एतावन्मात्रं यदि उच्यते तर्हि जनाः किं चिन्तयन्ति? कश्चित् शब्दकौस्तुभ नाम ग्रन्थः अस्ति, तत्र उक्तमेव अत्र सङ्गृह्य वदति, अस्माभिः किमर्थम् एतत् पठनीयं, किं प्रमाणम् इति पृच्छेयुः. यतोहि व्याकरणशास्त्रे प्रमाणभूताः आचार्याः त्रयः एव, पाणिनिः, कात्यायनः, पतञ्जलिः. तैः यदुच्यते तत् प्रमाणम्. अन्ये आधुनिकाः, इदानीं मया यदि कश्चित् व्याकरणग्रन्थः विरच्यते तर्हि तस्य किं वा प्रामाण्यम्? अहं यद्वदामि तद्युक्तम् अयुक्तम् इति कथं जानीमः? यदि अहं तेषाम् उक्तिः, मुनित्रयस्य उक्तिः अनुसृत्य कथयामि तर्हि मया उक्तं प्रमाणभूतम्. यदि अन्यत् किमपि स्वबुद्धिबलेन स्वकल्पितं कथ्यते तर्हि अप्रमाणम्. अतः आधुनिको उत्प्रेक्षितत्वम्, आधुनिकैः उत्प्रेक्षितं किञ्चित् इति न भवेत्. भाष्याब्धेः शब्दकौस्तुभ उद्धृतः इत्युक्तिस्तु शब्दकौस्तुभोक्तानाम् अर्थानां शब्दकौस्तुभे यद्यदुक्तं तत्सर्वमपि आधुनिक उत्प्रेक्षितं न. आधुनिकेन मया भट्टोजिदीक्षितेन उत्प्रेक्षितम्, एक्साजरेटेड्, मया स्वकपोलकल्पितं किमपि उच्यते इति न. अत एव सः किं स्पष्टीकरोति भाष्याब्धेः शब्दकौस्तुभौ उद्धृतः अर्थात् भाष्ये ये अर्थाः उक्ताः तयैव अर्थाः शब्दकौस्तुभे उक्ताः इति स्पष्टीकरोति तेन किं ज्ञायते भाष्यमूलकः ग्रन्थः शब्दकौस्तुभः शब्दकौस्तुभमूलकः ग्रन्थः वैयाकरणमतोन्मज्जनम् अतः भाष्ये यदस्ति तदेव अत्रापि कथ्यते इति परम्परया ज्ञातुं शक्यते अन्यथा तन्मूलकस्य नाम शब्दकौस्तुभमूलकस्य अस्य ग्रन्थस्य नाम वैयाकरणमतोन्मज्जनस्यापि आधुनिक उत्प्रेक्षित असारत्वापत्तौ आधुनिकेन उत्प्रेक्षितं तेन असारं साररहितम् इत्यापत्तौ पाणिनीयानाम् अनुपयादेयता प्रत्ययः पाणिनीयाः पाणिनिना प्रोक्तं पाणिनीयं शास्त्रं तदधीते यः पाणिनीयं शास्त्रम् अधीते वेत्ति वा सः पाणिनीयः पाणिनिग्रन्थान् वैयाकरणाः इत्यर्थः पाणिनीयानाम् अनुपादेयता उपादेयं स्वीकर्तुम् अर्हम् अनुपादेयम् अस्वीकार्यम् स्वीकर्तुम् नार्हम् इति चिन्तयेयुः यदि भाष्यम् भाष्यमूलः शब्दकौस्तुभः इति न कथ्यते तर्हि पाणिनीयाः वैयाकरणाः अस्य ग्रन्थस्य अध्ययने प्रवृत्ताः न भवेयुः इति किमुक्तम् आदौ भाष्याब्धेः शब्दकौस्तुभ उद्धृतः इति भट्टोजीदीक्षितेन उक्तम् अवगतम् किमपि न अवगम्यते चेत् कृपया पृच्छतु पुनः वदामि चिन्ता मास्तु एवं भाष्याब्धेः शब्दकौस्तुभ उद्धृतः इत्युक्तिस्तु शब्दकौस्तुभोक्तानाम् अर्थानाम् आधुनिक उत्प्रेक्षितत्वनिरासाय अन्यथा तन्मूलकस्य शब्दकौस्तुभमूलकस्य अस्य ग्रन्थस्यापि अर्थात् वैयाकरणमतोन्मज्जनस्यापि आधुनिक उत्प्रेक्षित असारत्वापत्तौ पाणिनीयानाम् अनुपादेयता प्रत्ययः पाणिनीयैः स्वीकर्तुं पाणिनीयाः न स्वीकुर्युः इत्यर्थं तथा उच्यते तत्र निर्णीतः इत्युक्तिः इतोपि अधिकं जिज्ञासुभिः शब्दकौस्तुभे द्रष्टव्यम् इति ध्वनयितुं तत्र निर्णीतः तत्र निर्णीत एवार्थः यः अर्थः तत्र निर्णीतः निर्णयं कर्तुं केवलं कथनं भिन्नं निर्णयः भिन्नः इदानीम् अस्मिन् ग्रन्थे सः केवलं सिद्धान्तं कथयति सः सिद्धान्तः कथं प्राप्तः तत्र किं किं कः कः पूर्वपक्षः तस्य निराकरणं कथम् इत्यादि नोच्यते वैयाकरणमतोन्मज्जने किन्तु शब्दकौस्तुभे उच्यते निर्णयं कर्तुं तत्सर्वम् अपेक्षितं टु डिसैड् संथिङ्ग् यु हव् टु हाव् द प्रूफ्स् तत्सर्वमपि तत्र निर्णीतः नाम शब्दकौस्तुभे निर्णीतः अतः इतोप्यधिकं जिज्ञासुभिः ये वैयाकरणमतोन्मज्जने यदस्ति तदपेक्षया अधिकं ज्ञातुम् इच्छन्ति ते कुत्र पश्येयुः शब्दकौस्तुभे पश्येयुः इति ध्वनयितुं तत्र निर्णीतः इत्युक्तिः प्रकृतग्रन्थस्य नाम वैयाकरणमतोन्मज्जनस्य सिद्धान्तकथने एव तात्पर्यं कः सिद्धान्तः इत्येव उच्यते न तु तत्साधनयुक्तिप्रदर्शने कथमयं सिद्धान्तः लब्धः इति अत्र नोच्यते साधनयुक्तिः प्रमाणञ्च जिज्ञासवः ये एतत् सर्वं ज्ञातुमिच्छन्ति ते किं कुर्युः शब्दकौस्तुभमेव पठेयुः अथवा व्याख्यारूपं भूषणं पठेयुः अत्र एतत् स्मर्तव्यं चतुस्सप्ततिभिः कारिकाभिः 74 कारिकाः सन्ति तत्र मतान्तरनिराकरणपूर्वकं वैयाकरण अभिमतपदार्थाः दीक्षितेन निरूपिताः अस्मिन् ग्रन्थे वैयाकरणमतोन्मज्जन नामके ग्रन्थे चतुस्सप्ततिः 74 कारिकाः एव सन्ति तत्र पदार्थाः निरूपिताः तासु कारिकासु एकादशकारिकाः हरिग्रन्थात् हरिग्रन्थः नाम हरिः इत्यनेन सर्वत्र भर्तृहरिः स्वीक्रियते हरिग्रन्थः वाक्यपदीयं वाक्यपदीयस्य एकादशकारिकाः अत्र उद्धृताः एका कारिका तन्त्रवार्तिकात् उद्धृता तन्त्रवार्तिकम् इति मीमांसाग्रन्थः तत्रत्या एका कारिका अत्र उद्धृता अतः द्वादशकारिकाः अन्यस्मात् ग्रन्थात् उद्धृताः ततोऽन्याः द्विषष्टिः कारिकाः भट्टोजीदीक्षितेन स्वयं निर्मिताः अस्मिन् ग्रन्थे निबद्धाः तेषां व्याख्यानम् अधुना कौण्डभट्टेन भूषणसारे क्रियते. अवगतम्?
भूषणकारः शब्दकौस्तुभस्य अपि तु वैयाकरणम् द्वयोः व्याख्यानं
वा? न न, वैयाकरणमतोमज्जनस्यैव व्याख्यानम्.
शब्दकौस्तुभस्य
न न न, शब्दकौस्तुभस्य न. शब्दकौस्तुभः अत्यन्तं विस्तृतः ग्रन्थः, स एव अष्टाध्याय्याः व्याख्यारूपः. तस्य व्याख्यानं नास्ति अत्र. केवलम् अत्र यदुक्तं तत् शब्दकौस्तुभे भट्टोजीदीक्षितैः विस्तरेण प्रतिपादितम् इत्येव. अधुना ग्रन्थस्य प्रथमं प्रकरणं प्रविशामः. धात्वर्थनिर्णयः इति प्रथमं प्रकरणम्. वाक्ये क्रिया प्रधानम्. प्रायेण सर्वेषु सिद्धान्तेषु, यद्यपि नैयायिकाः अन्यथा वदन्ति, तथापि क्रियायाः प्राधान्यं तु अस्त्येव. यत्किमपि वाक्यं भवतु, तत्र क्रिया एव प्रधानं भवति. अत एव वैयाकरणैः कात्यायनेन उच्यते एकतिङ् वाक्यं. वाक्यं नाम किम्? परसमूहः वाक्यम् इति सामान्यतया उच्यते. किन्तु यस्य कस्यापि अथवा येषां कथञ्चित् पदानां समूहः वाक्यम् इति नाङ्गीक्रियते, तत्र एकतिङ् वाक्यं यदि पूर्णं भवेत् तर्हि एकं तिङन्तं नाम एकं क्रियापदं भवेदेव. क्रियापदेनैव वाक्यं सम्पूर्णं भवति. क्रियया एव अन्येषां सर्वेषां पदार्थानाम् अन्वयः भवति इति सिद्धान्तः. अतः वाक्ये क्रियापदधानम्. क्रिया उच्यते धातुभिः, अतः धातोः कः अर्थः इति निर्णेतव्यम्. यद्यपि धात्वर्थनिर्णयः इति अस्य प्रकरणस्य नाम, तथापि अत्र धातोः कः अर्थः, तिङ् तिङ् प्रत्ययानां कः अर्थः, वाक्यस्य शाब्दबोधः कथं भवति इति बहवः अंशाः अस्मिन् प्रकरणे कथ्यन्ते. आदौ परिचयः. धात्वर्थनिर्णये साक्षात् ग्रन्थप्रवेशात् पूर्वम् अन्येषां केषाञ्चिदंशानां परिचयः प्राप्तव्यः अस्माभिः. मूलतः केषाञ्चित् पदानां, पारिभाषिकाणां पदानाम् अर्थः अवगन्तव्यः. ततः एव वयम् अवगन्तुं शक्नुमः. ग्रन्थे ये अंशाः कथ्यन्ते तेषाम् अवगमनं तदैव सिद्ध्यति. अतः आदौ किञ्चित् परिचयः. पदं द्विविधं भवति संस्कृते. यत्किमपि पदं भवतु द्विविधं. सुप् तिङन्तं पदम् इति सूत्रम्. अतः पदं सुबन्तं भवति अथवा तिङन्तं भवति. पदसमूहः वाक्यम् इति नैयायिकाः वदन्ति. केवलं पदानां समूहः इति न, तेषामपि अस्ति. योग्यता सन्निधिः, आकाङ्क्षा योग्यता सन्निधिः इति सर्वं भवेत् तदैव वाक्यं भवति इत्यस्ति. तथापि पदसमूहो वाक्यम् इति तेषां कथनं. वैयाकरणमते तु एकतिङ् वाक्यम् इति उच्यते वार्तिककारेण. यत्र वाक्यं भवति तत्र वाक्यात् अथवा शब्दैः अर्थस्य बोधः अवगमनं भवति, तस्य शाब्दबोधः इति नाम. यया प्रक्रियया अस्माभिः अर्थः बुध्यते अथवा अवगम्यते. सो दट् प्रोसेस् थ्रू विच् वि अण्डर्स्टाण्ड् द मीनिङ्ग् आफ् अ वर्ड् आर् अ सेण्टेन्स् इस् काल्ड् शाब्दबोध. शाब्दबोधः इति नाम. शाब्दबोधस्य प्रक्रिया, शाब्दबोधः कथं भवति इति एषा प्रक्रिया न्यायशास्त्रे, मीमांसाशास्त्रे, व्याकरणशास्त्रे च विचारिता. शाब्दबोधस्य कीदृशी प्रक्रिया इति तत्र परस्परं मतभेदाः सन्ति. नैयायिकानां मते शाब्दबोधस्य प्रक्रिया भिन्ना, मीमांसकानां मते भिन्ना, व्याकरणस्य मते च भिन्ना भवति. अतः आदौ वयं संक्षेपेण जानीमः वैयाकरणाः किं वदन्ति, नैयायिकाः किं वदन्ति मीमांसकाः किं वदन्ति इति आदौ संक्षेपेण ज्ञातव्यम्। एतद् ज्ञायते चेत् ग्रन्थस्य अवगमनं सारल्येन भवति। आदौ वैयाकरणसिद्धान्तः, अयमेव अस्माकं सिद्धान्तः, एतदेव पुनः अग्रे ग्रन्थे कथ्यते, बहुभिः प्रमाणैः साध्यते, किन्तु सिद्धान्तस्तु ज्ञातव्यः, एतत् स्मर्तव्यमेव। परीक्षार्थमपि वैयाकरणाः इति कारणेनापि अस्माकं सिद्धान्तः कः इति स्पष्टं ज्ञातव्यं, कथं साध्यते इति अनन्तरं, किन्तु कः सिद्धान्तः, किमुच्यते अस्माभिः इति प्रथमं ज्ञातव्यम्। अत्र धात्वर्थविषये वैयाकरणानां सिद्धान्तः अस्ति, धात्वर्थः फलं व्यापारश्च। यः कोऽपि धातुः भवति तस्य द्वौ अर्थौ भवतः, एकं फलम् अपरः व्यापारः इति। यथा पच् इति धातुः अस्ति, पतति, पच् इति धातुः, तेन धातुना किमुच्यते इति यदि चिन्तयामः, तत्र कश्चित् व्यापारः अस्ति। अर्थात् इदानीमेकं पात्रं स्वीक्रियते, चुल्ल्याः उपरि स्थाप्यते, चुल्ली ज्वाल्यते, तत्र कश्चित् पदार्थः स्थाप्यते, जलं योज्यते, एवं बहूनि बह्व्यः क्रियाः सन्ति। सो देर् आर् सेवरल् आक्षन्स् इन्वाल्ड् इन् सम्थिङ्ग् विच् वि काल्ड् कुकिङ्ग्। पचति इति वक्तुं व्यापारः नाम क्रियाविशेषाः सन्ति, तत्सर्वमपि पच् इति धातुना उच्यते। किञ्च तेन विक्लिप्तिः इति फलं, तेन किं भवति, पचति इति कदा उच्यते, कश्चित् पदार्थः अस्ति, उदाहरणार्थं तण्डुलाः, शुष्कतण्डुलाः सन्ति, कदा पचति इति प्रयोगः भवति, यदा ते तण्डुलाः जलं, जले पक्वाः, विस्तृताः भवन्ति, मृदु भवन्ति, पृथु भवन्ति, वेन्दसादौ, वेगर्दिन एन्न, तस्य विक्लिप्तिः इति नाम, विक्लिप्तिः नाम वेगर्द, द थिङ्ग् act or the state of being cooked, तदेव फलं। पच् इति धातुः यदा उपयुज्यते तदा तत्र विक्लिप्तिः फलं, तेन किं सिद्ध्यति, धातुना विक्लिप्तिरूपं फलं सिद्ध्यति, नाम यत्किञ्चित् वस्तु भवति तत् मृदु भवति, किञ्चित् पृथु भवति, विस्तृतं जलस्य योजनेन पृथु भवति, मृदु च भवति, तदेव विक्लिप्तिः इत्युच्यते। विक्लिप्तिः फलं, पच् इति या क्रिया अस्ति तस्याः विक्लिप्तिः फलं। तां विक्लिप्तिं साधयितुं काश्चन क्रियाः आवश्यक्यः, यथा अधिश्रयणम्। अधिश्रयणं नाम चुल्ल्याः उपरि पात्रस्य आरोहणं, काष्ठज्वालनं, पुरातनकाले अग्नेः, इदानीं तु गैस् स्टव् अस्ति चेत् तस्य ज्वालनम्, उदकसेचनं, प्रायेण उदकं विना पाकं न भवति, अतः उदकसेचनम् इत्यादिः व्यापारः। एवं पच् इति धातौ भागद्वयम् अस्ति, एकं तु तेन तया क्रियया यत् फलं सिद्ध्यति, किञ्च सा क्रिया एव। सो देर् आर् टु थिङ्ग्स् टु अ धातु, वन् इस् द रिसल्टेण्ट्, what happens if the action is completed, and the second is the action itself, what are the different steps to be carried out to achieve that resultant. Evam phalam vyaparah iti dvayam api dhatoh arthah iti vayyakaranaanam siddhantah. Yada yakopi pach iti dhatoh kanchid roopam yatkinchid roopam prayunkte tada tena dhatuna विक्लित्यरूपं फलमपि बुध्यते, तदनुकूलः व्यापारः, विक्लित्यनुकूलः यः कोऽपि व्यापारः सः सर्वोऽपि व्यापारः बुध्यते। एवमेव इदानीं गम्, गच्छति इति यदा प्रयोगं कुर्मः तत्र धात्वर्थः उच्यते उत्तरदेशसंयोगानुकूलः व्यापारः, गमधातोरर्थः। अर्थात् किं, गच्छति इत्यस्य किं फलम्, अहम् इतः शालां गच्छामि इति यदि प्रयोगः, तर्हि उत्तरदेशसंयोगः, तस्याः क्रियायाः फलं किं, शालाप्राप्तिः। यदि शालां गच्छति तर्हि शालाप्राप्तिः, यदि गृहं गच्छति तर्हि गृहप्राप्तिः, यदि देवालयं गच्छति तर्हि देवालयस्य प्राप्तिः, देवालयेन संयोगः। अत्र सर्वत्र उत्तरदेशः अयम् देशः अहम् आदौ कस्मिंश्चित् देशे अस्मि ततः अन्यत्र गच्छामि सः अन्यः प्रदेशः उत्तरदेशः इत्युच्यते उत्तरदेशेन संयोगः शालासंयोगो वा गृहसंयोगो वा देवालयसंयोगो वा फलम् गमधातुना किं साध्यते एकस्मात् देशात् अपरदेशस्य संयोगः साध्यते अस्मिन् देशे अस्मि चेत् अन्येन देशेन संयोगः गम इति धातुना साध्यते तदनुकूलः पादचलनादिः यदि गन्तव्यं यदि उत्तरदेशेन संयोगः साधनीयः तर्हि तत्र कश्चित् व्यापारः क्रिया अपेक्षिते कीदृशी क्रिया पद्भ्यां गमने पादचलनादिः व्यापारः अन्ये यानेन गमने यानस्य चालनमेव व्यापारः केनचित् व्यापारेण एतत् फलं सिद्ध्यति एवम् उत्तरदेशसंयोगरूपं फलं तदनुकूलः व्यापारः इति द्वयमपि गमधातोरर्थः एकं क्षणम् आगच्छामि खादति इति धातुरस्ति कः अर्थः खाद् धातोः गलबिलाधसंयोगानुकूलः व्यापारः खाद् धातोरर्थः इत्युच्यते किं भवति यदा यत्किमपि वस्तु खादति इति प्रयोगः तर्हि किं फलं तस्य तद्वस्तु गलबिलं गलबिलं नाम कण्ठः इत्यर्थः कण्ठस्य कण्ठकुहरं द ओरल् केविटि आर् द what we call the esophagus galabilam tatra kanthe yaha pradeshah tatra sanyogah bhavati to send something when you say you eat it means the whatever object it enters your digestive canal ityeva arthah tena bubhuksha nivrittih bhavatu va nava anyat kimapi phalam siddhyatu va nava खादति इति प्रयोगः कदा क्रियते यदा किञ्चित् वस्तु गलबिलाधसंयोगं प्राप्नोति तदा तदेव फलं खाद् इति धातोः तदनुकूलः इदानीं यदि तत् फलं साधनीयं तर्हि कण्ठः गलबिलम् इति तस्य वाट् वि काल् द थ्रोट् केविटि इत्युच्यते तस्य कण्ठः इत्यनेन बहिः प्रदेशः उच्यते गलबिलम् इति अन्तः द स्पेस् इस् काल्ड् गलबिलं तत्र अधस्संयोगः अधः गच्छति किल अन्तः यदस्ति तद् बहिरागच्छति तदापि गलबिलस्य संयोगः किन्तु तद् वमनमित्युच्यते न तु खादनम्
एकपदमेव गलबिलः इति
आम् गल इति बिलम् इति गलस्य बिलं गलबिलम् बिलम् इति रन्ध्रः इत्यर्थः कण्ठे यः रन्ध्रः अथवा यद्बिलं गलस्य बिलं गलबिलं तत्र अधस्संयोगः अर्थात् अधः गच्छन् तत्र संयोगं प्राप्नोति तत्फलं साधयितुं किं क्रिया आवश्यकी कीदृशी क्रिया मुखप्रवेशनं मुखे स्थापनीयं चर्वणीयं जिह्वासञ्चलनं कर्तव्यम् एषः सर्वोऽपि व्यापारः अतः गलबिलाधसंयोगः फलं तदनुकूलः व्यापारः फलं व्यापारः उभयमपि खाद् इति धातोः अर्थः जीवति इत्यस्ति कः अर्थः प्राणधारणानुकूलः व्यापारः प्राणधारणं जीवप्राणधारणे इति धातुः प्राणधारणानुकूलः व्यापारः तत्र किं फलं प्राणधारणं फलं प्राणाः धार्यन्ते देहे एव धार्यन्ते दुधायि धारणपोषणयोः देहे प्राणानां धारणम् एव जीवधातोः फलम् कथं सिद्ध्यति तत्फलम् हृदयस्पन्दनं रक्तसञ्चलनम् इत्यादि यदा शरीरस्य सर्वाः प्रक्रियाः चलन्ति तदैव प्राणधारणं सम्भवति एवं स सर्वोऽपि व्यापारः यदि व्यापारः नास्ति तर्हि फलं न सिद्ध्यति अत एव यदि हृदयस्पन्दनं नास्ति तर्हि प्राणधारणं न भवति जीवति इति प्रयोगः न भवति अतः फलं व्यापारः इति द्वयमपि धातोरर्थः धात्वर्थः फलं व्यापारश्च अवगतम् सर्वेषु धातुषु एतत् सम्भवति. सर्वेषां धातूनां अवगतम्? एवं फलं व्यापारः द्वयमपि धातुना बोध्यते. धातोः परं ये प्रत्ययाः सन्ति तिङ् प्रत्ययाः, अत्र तु तिङ् प्रत्ययानामेव विचारः क्रियते. अन्येपि प्रत्ययाः भवन्ति कृदादयः, तेषाम् अर्थः अस्मिन् प्रकरणे न विचार्यते. तिङ् प्रत्ययानां, यतोहि तिङन्तः एव प्रधानः, एकतिङ् वाक्यम्, अतः तिङ् प्रत्ययाः सन्ति. तेन तिङ् प्रत्ययेन किं बोध्यते? तिङर्थः कर्तृ कर्म संख्या कालाः. कर्ता यः कार्यं करोति सः, अथवा कर्म संख्या वचनं, कालः वर्तमानः भूतः भविष्यद् इत्यादि, एषः सर्वोऽपि तिङ् प्रत्ययस्य अर्थः. यथा पचामि इत्युक्ते भागद्वयमस्ति, पच् इति धातुः, मिप् इति प्रत्ययः. तत्र धातुना विक्लित्यनुकूलः व्यापारः, विक्लित्तिः फलं, तदनुकूलः व्यापारश्च धातुना ज्ञायते. मिप् प्रत्ययेन किं ज्ञायते? पचामि लट्लकारस्य प्रत्ययः, अतः वर्तमानकालः प्रत्ययेन ज्ञायते. यदि प्रत्ययः नास्ति तर्हि केवलं पच् इत्युक्ते कः कालः वक्तुं न शक्यते. अतः वर्तमानकालः प्रत्ययस्य अर्थः. एकत्वसंख्या मिप् इति एकवचनप्रत्ययः, अतः पचामि इत्यनेन एकत्वरूपः, एकत्वरूपा संख्या अपि ज्ञायते. किञ्च पचामि इत्युक्ते पाककर्ता अहम्, अहं कर्ता, अतः कर्ता अपि ज्ञायते. एवं कालः संख्या कर्ता च तिङ् प्रत्ययेन ज्ञायते, फलं व्यापारश्च धातुना ज्ञायते. यत्र पच्यन्ते, तण्डुलाः पच्यन्ते इति कर्मणि प्रयोगः, अयं तु कर्तरिप्रयोगः. किमर्थं कर्तरिप्रयोगः? कर्ता प्रत्ययेन ज्ञायते, अत एव सः कर्तरिप्रयोगः. यत्र कर्मणि प्रयोगः क्रियते, पच्यन्ते तण्डुलाः पच्यन्ते, तत्र स एव धातुः, धातुना समानः अर्थः. विक्लित्तिः फलं, तदनुकूलः व्यापारः धातोरर्थः. लकारः अस्ति, स एव लट्लकारः, वर्तमानकालः. बहुत्वसंख्या, तत्र यः प्रत्ययः न तु तिप्रत्ययः, झ प्रत्ययः अत्र टङ्कनदोषः, झ इति प्रत्ययः, तेन किं ज्ञायते? बहुत्वसंख्या ज्ञायते. बहवः तण्डुलाः पच्यन्ते न तु एकः इति संख्या ज्ञायते. पुनश्च कर्म ज्ञायते. अत्र पच्यन्ते इत्यनेन कः पाकं करोति? मया पच्यन्ते वा, त्वया पच्यन्ते वा, मात्रा पच्यन्ते वा, कर्तुः प्रतीतिः न भवति अस्मिन् प्रयोगे. किं ज्ञायते? पच्यन्ते इत्यनेन कर्म. तण्डुलाः यत्किमपि वस्तु प्रथमपुरुषे युष्मदस्मद्भिन्नं कर्म इत्येव ज्ञायते. कर्मविषयकमेव ज्ञानम् उत्पद्यते, न तु कर्तृविषयकम्. अतः कर्तरिप्रयोगे तिङ् प्रत्ययेन कर्ता बुध्यते, कर्मणि प्रयोगे कर्म बुध्यते. उभयत्रापि कालः संख्या च ज्ञायते. एवं तिङ् प्रत्ययस्य अर्थः कर्ता अथवा कर्म, उभयोः युगपत् न भवति. कर्ता उच्यते अथवा कर्म उच्यते, संख्या कालश्च तिङ् प्रत्ययस्य अर्थः. फलं व्यापारश्च धात्वर्थः, कर्तृकर्मसङ्ख्याकालाः तिङर्थाः. इदानीं शाब्दबोधः. किञ्चिद् वाक्यं श्रूयते चेत् व्याकरणसिद्धान्ते कथं शाब्दबोधः भवति, कथम् अर्थस्य अवगमनं भवति? फलं व्यापारश्च धात्वर्थः इत्युक्तं तत्र व्यापारः प्रधानम्, फलापेक्षया व्यापारस्य प्राधान्यम्. द मोस्ट् इम्पार्टेण्ट् पार्ट् आफ् अ सेण्टेन्स् इस् व्यापार आर् द एक्शन्. फलं व्यापारे विशेषणम्. सो विशेषणं विशेष्यं, विशेष्यं सर्वदा प्रधानं, तस्य विशेषणं भवति. फलं धात्वर्थः यत् फलं भवति तत् व्यापारं प्रति विशेषणम्. अत एव विक्लित्तिः फलं, विक्लित्त्यनुकूलः व्यापारः. विक्लित्तिं यत् प्रयोजयति तादृशः व्यापारः, विक्लित्त्यनुकूलः व्यापारः. अतः फलं व्यापारं प्रति विशेषणम्। कर्ता यदुच्यते, कर्ता केन उच्यते? तिङ् प्रत्ययेन, आख्यातः इत्यनेन तिङ् प्रत्ययः एव उच्यते। अतः तिङर्थः कर्ता, कर्ता अपि व्यापारं प्रति विशेषणम्। तत्कर्तृकः यथा चैत्रः तण्डुलं पचति इत्यस्ति अस्ति, तर्हि विक्लित्यनुकूलः व्यापारः चैत्रकर्तृकः व्यापारः, चैत्रेण निर्वर्त्यमानः व्यापारः इति। कर्ता अपि व्यापारं प्रति विशेषणम्। कालः वर्तमानकालिकः व्यापारः अथवा भूतकालिकः व्यापारः। एवं फलं, कर्ता, कालश्च व्यापारं प्रति विशेषणम्। व्यापारः प्रधानम्, व्यापारे त्रीणि विशेषणानि, फलं, कर्ता, कालः। कर्ता कालश्च तिङ् प्रत्ययेन ज्ञायते, फलं धातुना ज्ञायते। इतोपि एकः अस्ति, कर्म अस्ति। यदि कर्म भवति तर्हि कर्म फलं प्रति विशेषणम्। सो कर्म इज ऑलवेज रिलेटेड टू द फल, बिकॉज यदि तण्डुलान् पचति इति उच्यते तर्हि तत्र पच् धातुना भागद्वयम् अस्ति, विक्लित्तिः अस्ति, विक्लित्यनुकूलः व्यापारः। तत्र व्यापारः कुत्र अस्ति? कर्तरि विद्यते। यथा माता पचति इत्यस्ति चेत् तत्र यः व्यापारः, अधिश्रयणं, चुल्याः ज्वालनम्, उदकसेचनम् इत्यादि सर्वं कुत्र दृश्यते? मातरि दृश्यते। अतः माता एव कर्त्रि, व्यापाराश्रयः कर्ता। फलं कुत्र दृश्यते? विक्लित्तिः नाम तत् मृदुभवनं, शिथिलीभवनं, पृथुभवनं वा कुत्र दृश्यते? तण्डुलेषु दृश्यते। अतः फलाश्रयः कर्म, सर्वदा एतत् स्मर्तव्यं। व्यापाराश्रयः कर्ता, फलाश्रयः कर्म। ओके, सो कर्म फलं प्रति विशेषणम्, अतः फलेन अन्वेति इत्यर्थः। संख्या अस्ति, तिङ् प्रत्ययेन यदा संख्या उच्यते सा संख्या कुत्र अन्वेति? कर्तुः कर्मणः वा विशेषणम्। यथा पचति इत्युक्ते एकत्वसंख्या, किम् एकत्वं? कर्ता, कर्ता एकः इति अवगम्यते। एवं पचामः इत्युक्ते वयं बहवः पाककार्यं निर्वर्तयामः, अतः कर्तारः, कर्तॄणां संख्या एव ज्ञायते। अथवा यदि तण्डुलाः पच्यन्ते इत्युच्यते, मात्रा तण्डुलाः पच्यन्ते, तत्र बहुत्वरूपः यः अर्थः, सः कर्त्रा न अन्वेति, माता तु एका एव, किन्तु कर्मणा अन्वेति। कर्मणि प्रयोगे संख्या, कर्मणा अन्वेति, कर्तरि प्रयोगे कर्त्रा अन्वेति। व्यापार मुख्यविशेषक शाब्दबोधः अस्माकं सिद्धान्तः। पुनः वदामि, अवगम्यते पचति अथवा इति यदि प्रयोगः, तत्र भागद्वयमस्ति, एकः धातुः, अपरः तिङ् प्रत्ययः, तस्यैव आख्यातः इति नाम। धातोः अर्थद्वयम्, फलम् इति एकः अर्थः, व्यापारः इति अपरः अर्थः। तिङ् प्रत्ययस्य कर्ता अर्थः, कर्म अर्थः, कर्ता अथवा कर्म, संख्या कालः इत्येवं कर्तृकर्मसङ्ख्याकालाः तिङर्थाः, फलव्यापारौ धात्वर्थः। एतेषु सर्वेषु अर्थेषु किं प्रधानम्? एतत् स्मर्तव्यम्, एते सर्वे अर्थाः स्वतन्त्राः न, दे आर् नाट् इण्डिपेण्डेण्ट् मीनिङ्ग्स्, ऐ मीन् टु अण्डर्स्टाण्ड् सम्थिङ्ग्, दे आर् आल् इण्टर् रिलेटेड्, सर्वेषां परस्पर सम्बन्धः भवति। सः सम्बन्धः एव शाब्दबोधः इत्यनेन उच्यते, कथं परस्परं सम्बन्धः। एते सर्वे अर्थाः ज्ञायन्ते इति सत्यम्, एतेषाम् अर्थानां परस्परं सम्बन्धः कीदृशः भवति इति शाब्दबोधे उच्यते। तत्र वैयाकरणैः उच्यते, एतेषु सर्वेषु अर्थेषु व्यापारः प्रधानम्, धात्वर्थः व्यापारः एव प्रधानम्, दट् इस् द मोस्ट् इम्पार्टेण्ट् आफ् इम्पार्टेण्ट् मीनिङ्ग्, इट् इस् विशेष्य The final visheshya is vyapara. Tatra vyaparena saha anyesham katham sambandhaha. Phalam vyapare visheshanam. Viklityanukulaha vyaparaha. Uttaradesha sanyoganukulaha vyaparaha. Pranadharananukulaha vyaparaha. Evam the phala. Phalasya sarvada vyapare visheshanattvam bhavati. Karta api vyapare anveti visheshanatvena. Chaitra kartrakaha vyaparaha, mat kartrakaha vyaparaha, ityadi karta vyapare visheshanam. Karma vyapare na anveti. The object is not directly related to the vyapara. Idanim tandulaha santi, tatha adhishrayanam kashtajvalanam ityadi vyaparaha. Tayoho sakshat sambandhaha nasti. Kutra sambandhaha, phale, nama viklittau sambandhaha. Tanduleshu vikrittihi drishyate. Vikrityanukulaha vyaparaha pasidhatuna uchyate. Ataha karma phale anveti, phalam vyapare anveti. Sankhya kartari athava karmani. Kartari prayoge kartari anveti, karmani prayoge karmani anveti. Ataha sankhyayaha sakshad vyapare anvayaha nasti. Vyaparaha athava kriya sarvada eka eva. It is always action is just one. Okay. So, ting pratyena ya sankhya uchyate, sa vyapare sakshat nanveti, kartari athava karmani anveti. Kalastu sakshat vyapare eva visheshanam. Pachati ityukte vartamana kalaha kasya, pakarupa vyaparasya vartamanatvam, natu kartuhu. Yadi kartuhu kartra anveti kalaha tarhi, yavat mata jivati, Tavat mata pachati iti prayogaha syat. Tatha prayogastu nasti. Yada sa paka vyapare nirata tadaiva pachati iti prayogaha. Ataha kalaha sakshat vyapare eva anveti. Idam sarvam anubhava siddham. Sankhya kartari anveti ityapi anubhava siddham. Kalaha vyapare anveti ityapi anubhava siddham. Evam vayakrana siddhante shabda bodhe vyaparaha pradhanam. Phalam, karta, kalascha, vyapare visheshanam, karma, phale visheshanam, sankhya, kartari, karmani va visheshanam. Avagatam va?
Avagatam.
Punah punaha etad uchyate. Chintam astu granthasya adhyayana samaye punah punaha smaranam. Kintu ete mulabhutaha amshaha asmin prakarane avashyam spashtam nyatavyaha. Eka mudaharanam pashyamaha, chaitraha pachati iti vakyam. Asmat vakyat kidrishaha arthaha bhavati, katham asmabhihi avagamyate, arthat kaha shabda bodhaha, vyakarana pakvayayam. Chaitraha pachati, kim pradhanam bhavati eva vadatu vedane.
Atra pachati ityeva pramanam.
Tatra kim pradhanam pachati ityatra. Pachati ityatra shadarthaha santi. Pachi dhatuna viklitirupam phalam tadanukulaha vyaparaha jnayate. Ting pratyayena chatvaraha arthaha jnayante. Tatra kim vyaparaha. Kidrishaha vyaparaha. Vyapare kim kim visheshanam bhavati.
Vyapare vyaparasya visheshanam phalam.
Phalam bhavati. Kim phalam atra?
Atra eating is the phalam.
No. Pachati. Eating is not the phala. Paka karyasya kim phalam?
Paka karyasya Pakakaryasya phalam tu tattu solla varanga
thundi. Viklittihi phalam. Natu eating. Yadyapi satyam loke pakasya kim phalam ityanena bhojanam phalam. Kintu अत्र शास्त्रे सः अर्थः न स्वीक्रियते. यः कोऽपि तत् पदार्थं खादतु अथवा न खादतु. यदि खादनार्हं नास्ति मया पक्वं तर्हि कोऽपि न खादेत्. किन्तु पचति इति प्रयोगस्तु भवति किल. यद्यपि यः कोऽपि खादति अथवा न खादति, पचति इति प्रयोगस्तु भवत्येव. अतः फलं किं? विक्लिप्तिः, वेगर्द् वेगर्द्दा फलम्. अतः विक्लिप्तिः फलम्, विक्लित्यनुकूलः व्यापारः इति एकः अंशः. अन्यत् किं विशेषणं व्यापारे?
व्यापारे विशेषणं कालः.
कः कालः अत्र? वर्तमानकालिकः व्यापारः. विक्लित्यनुकूलः व्यापारः, वर्तमानकालिकः व्यापारः. अन्यत् किं विशेषणम् व्यापारे?
कर्ता.
कः कर्ता?
चैत्रः.
चैत्रकर्तृकः व्यापारः. एवं त्रयः पदार्थाः लब्धाः. चैत्रकर्तृकः, विक्लित्यनुकूलः, वर्तमानकालिकः व्यापारः. संख्या अस्ति, का संख्या?
अत्र संख्या
का संख्या? एकवचनं वा, द्विवचनं वा, बहुवचनं वा?
एकवचनम्.
एकवचनं. तत् कुत्र अन्वेति?
तत् कर्ता.
कर्तरि अन्वेति. अतः एकत्वसंख्यावच्छिन्नः चैत्रः. एकत्वसंख्यावच्छिन्न चैत्राश्रयः. चैत्रः अस्ति, सर्वं व्यापारः अन्ते अस्ति. अतः सः प्रधानम्. यत् प्रधानं तदेव अन्ते भवति. व्यापारः कीदृशः? विक्लित्यनुकूलः व्यापारः. फलं व्यापारे अन्वेति. वर्तमानकालिकः विक्लित्यनुकूलः व्यापारः. यतोहि कालः अपि व्यापारे अन्वेति. वर्तमानकालिकः विक्लित्यनुकूलः व्यापारः. चैत्राश्रयः, चैत्रः कर्ता, कर्ता अपि व्यापारे अन्वेति. अतः चैत्राश्रयः, वर्तमानकालिकः, विक्लित्यनुकूलः व्यापारः. एकत्वम् इति संख्या तु चैत्रे अन्वेति. अतः एकत्वसंख्यावच्छिन्न यः चैत्रः, एकत्वसंख्यावच्छिन्न चैत्राश्रयः, वर्तमानकालिकः, विक्लित्यनुकूलः व्यापारः. अयं शाब्दबोधः.
प्रयोगे कर्तावोड सम्बन्धम् कर्मणि प्रयोगे संख्या वन्दु कर्मा कुर
सत्यं
प्रयोग सम्बन्धम्
आमाम् एक्साक्ट्लि. சோ இந்த லைன் இருக்கே இதுதான் நம்ம சாப்தபோதன்னு சொல்லுவோம். எதா சாப்தபோதம் இத்யுச்யதே இதம் வாக்கியம் உத்திஷ்யதே. அத்ர சர்வே அர்த்தாஹ தேஷாம் பரஸ்பர சம்பந்தஹ ச ஸ்பஷ்டஹ. வியாபாரஹ பிரதானம், விக்லித்திஹி காலஹ கர்த்தா ச வியாபாரே அன்வேதி, சங்க்யா கர்த்தரி அன்வேதி. அதஹ ஏகத்வ சங்க்யா சைத்ரஹ பசதி இதி வாக்யஸ்ய வையாகரண சித்தாந்தே சாப்தபோதஹ ஏவம் பவதி. एकत्वसंख्यावच्छिन्न चैत्राश्रयः, वर्तमानकालिकः, विक्लित्यनुकूलः व्यापारः इति शब्दबोधः. चैत्रः तण्डुलान् अपाक्षीत् इति प्रयोगः. अत्र कथं शब्दबोधः? पचति इत्यस्य लुङ्लकारः भूतकाले. अपचत् इति यथा, तथा अपाक्षीत् पक्ववान् इत्यर्थः. अत्र वदतु कथं शब्दबोधः?
अत्र व्यापारः अपाक्षीत् इति व्यापारः.
कीदृशः व्यापारः?
फलमस्ति तस्य विशेषणं. इदुल वन्दु संख्या वन्दु
आर्डर् आर्डर् तस्य क्रमे आदौ फलम् उक्तं. किं फलम्?
विक्लित्यनुकूलः.
विक्लित्तिः फलम्, अतः विक्लित्यनुकूलः व्यापारः. अनन्तरं कालः. कः कालः? भूतकालः तस्य कुत्र अन्वयः
तत्र अन्वयः चैत्रः
चैत्रः भूतकालिकः इत्यर्थः वा चैत्रः इदानीं नास्ति इत्यर्थः वा भूतकालस्य चैत्रः तण्डुलान् अपाक्षीत् चैत्र कुक्ड् रैस् भूतकालः चैत्रे वा अर्थात् चैत्रः अधुना नास्ति इत्यर्थः वा कुत्र तण्डुलाः इदानीं न सन्ति इति वा इन्न इप्पन् इल्ले भूतकालः इत्युक्ते कस्य भूतकालः विवक्ष्यते पाकक्रिये इप्पो नडकरदिल्ले अर्थं क्रियायाम् अन्वेति व्यापारे अन्वेति कालः सर्वदा व्यापारे एव अन्वेति अतः भूतकालिकः व्यापारः भूतकालिकः विक्लित्यनुकूलः व्यापारः अपरम्
अनन्तरं संख्या तण्डुलान् बहुवचनम् अपि वन्दि कर्मावोड सम्बन्धम् इति
எந்த சங்கியா
தண்டுலான்
தண்டுலான்ங்கிற இல்ல இருக்கிற சங்கியா த்விதியா விபக்தேஹ சங்கியா அபாக்ஷீத்ல சங்கியா இருக்கா இல்லையா
அபாக்ஷீத்ல சங்கியா இல்ல
இல்லையா பச்சத்தீன சங்கியா இருக்கா இல்லையா ஏகவச்சனம் ததேகத்துவம் குத்ர அன்வேதி चैत्रः अयमपि कर्तरिप्रयोगः दिस् इस् नाट् कर्मणि प्रयोगः अयमपि कर्तरिप्रयोगः अतः संख्या कर्तरि एव अन्वेति अतः एकत्वसङ्ख्यावच्छिन्नचैत्राश्रयः भूतकालिकः विक्लित्यनुकूलः व्यापारः तण्डुलानां कुत्र अन्वयः
चैत्रः
कुत्र अन्वयः पूर्वं पश्यामः तण्डुलः किम् वाट् इस् तण्डुल
तण्डुलः कर्म
कर्म कुत्र अन्वेति
फलं
फले अन्वेति किं फलम्
पचति अपाक्षीत्
फलं फलं किं पचति इति धातुः पच धातुना फलं किम् विक्लिप्तिः विक्लिप्तौ तण्डुलः अन्वेति अतः एकत्वसङ्ख्यावच्छिन्न चैत्राश्रयः भूतकालिकः व्यापारः विक्लित्यनुकूलः तण्डुलस्य विक्लिप्तौ अन्वयः तण्डुलाश्रय विक्लित्यनुकूलः तण्डुलाश्रयाया विक्लिप्तिः तदनुकूलः व्यापारः बहुत्वसङ्ख्या तण्डुलान् इत्यत्र तस्य कुत्र अन्वयः तण्डुलेषु अन्वयः बहुत्वसङ्ख्यावच्छिन्न तण्डुलाश्रया या विक्लिप्तिः तदनुकूलः व्यापारः किमस्ति अत्र व्यापारः इट् इस् सिम्पल् अत्र क्लिष्टं किमपि नास्ति एतत् स्मर्तव्यम् इफ् यु रिमेम्बर् दिस् डायाग्राम् You will be able to do the Shabda Bodha for everything. Kasya Kutra Anvayaha. It is Martavyam. Practice. Adu Abhyasenaiva Agachati. Kintu Kimapi Klishtam Nasti. There is nothing difficult. Kimasti Vyaparaha Pradhanam. Vyapare Kim Anveti. Phalam Anveti. Ataha Viklityanukolaha Vyaparaha. Kalaha Vyapare Anveti. Bhutakalikaha Vyaparaha. कर्ता व्यापारे अन्वेति चैत्राश्रयः व्यापारः एळदुं बोधु यु केन् रैट् इट् पार्ट् बै पार्ट् फुल्ला ओरे यु डोण्ट् हव् टु गिव् द होल् सेण्टेन्स् अट् वन्स् फस्ट् व्यापारः एळदणु ऐ मीन् इफ् यु आर् ट्रैङ्ग् टु प्राक्टिस् यु टु फस्ट् रैट् व्यापार देन् एल्ला वर्ड्स् तनि तनिया एळदणु वेन् यु रैट् एव्रिथिङ्ग् सेपरेट्लि अण्ड् लिङ्क् इट् यु विल् आटोमेटिकलि गेट् दिस् सेण्टेन्स् सो मूणु वन्दड् विक्लित्यनुकूलः व्यापारः பூதகாலிகா வியாபார சைத்ராஷய வியாபார. இப்போ அபாக்ஷீத்ல ஏகத்வ சங்கியா அஸ்தி, குத்ர அன்வேதி கர்த்தரி சைத்ரே அன்வேதி, அத ஏகத்வ சங்கியா வச்சின்ன சைத்ராஷய நீதி எல்லாம் இருக்கு. பூதகாலிகா விக்லித்தியனுகூல வியாபார, தண்டுலான் குத்ர அன்வேதி ஃபலே அன்வேதி, அத தண்டுலாஷ்ரய விக்லித்தி, தண்டுலான்ல சங்கியா இருக்கு, பகுத்வ சங்கியா வச்சின்ன தண்டுலாஷ்ரய விக்லித்தியனுகூல வியாபார, பூதகாலிகா ஏகத்வ சங்கியா வச்சின்ன சைத்ராஷ்ரய. இட் இஸ் குவைட் சிம்பிள். ஆனா இந்த சம்பந்தா யா அஸ்தி தஹ சம்யக் ஞாதவ்யஹ. வியாக்கரண சித்தாந்தானுகுணம் ஃபலம் வியாபாரஶ்ச தாத்வர்த்தஹ, கர்த்ரு கர்ம சங்கியா காலாஹ திங்கர்த்தாஹ, வியாபாரஹ பிரதானம், ஃபலம் கர்த்தா காலஶ்ச வியாபாரே விசேஷணம், கர்ம ஃபலே விசேஷணம், சங்கியா கர்த்தரி கர்மணி வா விசேஷணம். சோ ஏதத் ஞாயதே சேத் சப்த போதஹ ஸ்வயம் கர்த்தும் சக்யஹ. க்ளியர்? இதானீம் சைத்ரேண தண்டுலாஹ பச்யந்தே இத்யஸ்தி. சைத்ரஹ தண்டுலான் பச்சதி இதி கர்த்தரி பிரயோகஹ, சைத்ரேண தண்டுலாஹ பச்யந்தே இதி கர்மணி பிரயோகஹ. அத்ர கதம் சப்த போதஹ
சைத்ரேண தண்டுலாஹ பச்யந்தே வர்த்தமான காலஹ,
அது மாறறதே இல்ல, கால எப்பவும் வியாபாரத்துக்கு
தான்.
காலமும் அங்கேயே இருக்கு, வியாபாரமும் அங்கேயே இருக்கு, பலமும் அங்கேயே இருக்கு. அத வியாபார இத்தியனேன அன்வய, வர்த்தமான காலிகா வியாபார, வர்த்தமான காலிகா விக்லித்தியனுகூல வியாபார.
சங்கியா பச்சியந்தே இது அஸ்தி, அத பகுவச்சனம். அனந்தரம் சைத்ரேன இது ஏகவச்சனம்.
பச்சந்தே இது பகுவச்சனம் குத்ர அன்வேதி?
தண்டுலாஹ இது அஸ்ய,
தண்டுலாஹ யதோஹி அயம் கர்மணி பிரயோகஹ, அதஹ கர்மணா அன்வேதி. பகுத்வ சங்க்யா வச்சின்ன தண்டுல. அனந்தரம்
காலஹ சங்க்யா
கர்த்தா, கர்த்தா
கர்த்தா சைத்ரஹ
குத்ர அன்வேதி?
சைத்ரேன தண்டுலாஹ பச்யந்தே.
கர்த்தா சர்வதா வியாபாரே ஏவ அன்வேதி, தத்ர சிந்தனியமேவ நாஸ்தி. காலஹ வியாபாரே, ஃபலம் வியாபாரே, கர்த்தா வியாபாரே, யஹ கோபி பிரயோகஹ பவது. சி பரஸ்பர சம்பந்தஹ ந பித்யதே, சர்வதா கர்த்துஹு வியாபாரேணைவ சம்பந்தஹ. அதஹ சைத்ராஶ்ரயஹ வியாபாரஹ, சைத்ராஶ்ரயஹ வர்த்தமான காலிகஹ விக்லித்யனுகூலஹ வியாபாரஹ. தண்டுலானாம் குத்ர அன்வயஹ?
தண்டுலானாம் பச்யந்தே இத்யஸ்ய.
நா நா நா, நாட் த வர்ட், கஸ்மின் அர்த்தே அன்வயஹ? பச்சியந்தே இந்துலஸ்ய ஷட் அர்த்தாஹ சந்தி. பச்சியந்தே கர்மணி, சி இஃப் யூ ரிமெம்பர், யூ கேனாட் சே பச்சியந்தே, தோ ஹி பச்சியந்தே இதி கிம், தாதுஹு திங் மிலித்வா பச்சியந்தே, தத்ரைவ ஷட் அர்த்தாஹ சந்தி. தேஷு குத்ர அன்வயஹ? ஃபலே அன்வயஹ, அதஹ விக்லித்தௌ அன்வயஹ. பஹுத்வ சங்க்யா வச்சின்ன தண்டுலாஷ்ரய விக்லித்யனுகூலஹ. விக்லித்யனுகூலஹ வியாபாரஹ, தண்டுலஸ்ய விக்லித்தௌ சம்பந்தஹ, தண்டுலாஷ்ரய விக்லித்தி, பஹுத்வ சங்க்யாயாஹ தண்டுலேஷு அன்வயஹ, பஹுத்வ சங்க்யாவச்சின்ன தண்டுலாஷ்ரய விக்லித்யனுகூலஹ வியாபாரஹ, வர்த்தமான காலிகஹ வியாபாரஹ, சைத்ராஷ்ரயஹ வியாபாரஹ, சச சைத்ரஹ ஏகத்வ சங்க்யாவச்சின்னஹ. ஏவம் பஹுத்வ சங்க்யாவச்சின்ன தண்டுலாஷ்ரய விக்லித்யனுகூலஹ வர்த்தமான காலிகஹ ஏகத்வ சங்க்யாவச்சின்ன சைத்ராஷ்ரயஹ வியாபாரஹ இதி சாப்த போதஹ. If you look at this and the kartari prayoga, chaitraha tandulan pachati or chaitrena tandulaha pachyante, ubhayatra shabda bodhaha samanaha. There is no difference in shabda bodha because you are relating everything the same way. Everywhere you have the vyapara, vartamana kalikaha chaitrashayaha vikrityanukulaha iti bhavatyeva, tandulaha eva karma, tatra bahutva sankhya, ekatva sankhya chaitre. Ataha பிரயோகா பித்தியதே சேதபி சாப்த போதா ந பித்தியதே. சோ வெதர் வீசே சைத்ரஹா தண்டுலான் பசதி ஆர் சைத்ரேன தண்டுலாஹ பச்யந்தே சமானஹா அர்த்தஹா ஏவ அவகம்யதே இதி ஏகம் மதம். அத்ர வையாகரணேஷ்வபி மதபேதாஹ வித்யந்தே கர்மணி பிரயோகே கதம் சாப்த போதா இதி விஷயே, கிந்து பிராயேண அயமேவ சித்தாந்தஹ உபயத்ராபி சமானஹா சாப்த போதா இத்யேவ. அவகதஹ வையாகரணானாம் சித்தாந்தஹ
அவகதஹ பகி.
அக்ரே மீமாம்சகானாம் நையாயிகானாம் சித்தாந்தஹ ஞாதவ்யஹ. அயம் அஸ்மாகம் சித்தாந்தஹ, கிந்து மீமாம்சகாஹ அன்யத் வதந்தி, நையாயிகாஹ அன்யத் வதந்தி, தத்வயம் ஸ்வஹ ஜானீமஹ. அத்ய ஏதாவதாலம், ஸ்வஹ ஏதத் பஸ்யாமஹ.
ஸ்வஹ த்ரிசதி வா பகி.
ஆம், சமானே சமயே. ஸ்ரீலக்ஷ்மீரமணம் நௌமி கௌரீரமணரூபிணம் ஸ்ஃபோட ரூபம் யதஸ்ஸர்வம் ஜகதேதத்விவர்த்ததே.